एतत्त इन्द्रवीर्यम् येभ्यर्गृणन्ति कालवाः ते स्तोभम् तौर्जमावन्धृतस्तुतम् पौरासो नक्षम् धीतिभिः नक्षम् त इन्द्रमवसे सुकृतराजेषाम् सुतेष्वनन्दसे सम्भक्ते अमादो यथा कृत एवास्मे इन्द्रमत्स्व आ नो विश्वे सजोषसो देवा सोग्रन्थनोपनः वसवो रुद्र अवसे नागमन् शृण्वन्तु मरुतोभवम् पूजा विष्णुर्भवनम् मेधरस्वरचवन्तु सप्त सिन्धवः आभोगादः पर्वतासो वनस्पतिः शृणोतु पृथिवीभवम् यदिन्द्रराधो अस्ति ते माघो नम् मघवत्तम तेन नो बोधिसभवाद्यो वृधे भवो दानाय वृत्रहन् आदिपदे नृपते त्वमिद्धि नो बाधावक्षि सुक्रतो ीहोत्राभिरुतदेवीतिभिः सवाम् सो विशृण्विरे सन्दिह्यासिरयिन्द्रार्जुर्जनानाम् अस्मान्नक्षस्वमघभन्नुपावासे दुःखस्व विद्युषीमिषम् अजन्त इन्द्रस्तोमेभिर्विधे मत्रमस्माकम् सदक्रतो महिस्तूर्णम् सजम् राधो अह्रजम् प्रस्करन् वा जनितोषया